वयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। इदानीं वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य बिहारे उत्तर प्रदेशे च 96,000 कोटि रूप्यकाणां व्ययेन विकास परियोजनायाः शुभारम्भं करिष्यति। बिहारे श्रीमोदी रोहतासस्य विक्रमगंजे 25,58,000 कोटि रूप्यकाणां व्ययेन विकास परियोजनानां उद्घाटनं शिलान्यासं च राष्ट्राय समर्पणं करिष्यति। उत्तर प्रदेशे प्रधानमन्त्री अद्य मध्याह्ने कानपुरे 90,50,000 कोटि रूप्यकाणां व्ययेन विकास परियोजनानाम् अनावरणं विधास्यति। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य पटना नगरे जयप्रकाश नारायण अन्ताराष्ट्रिय विमानस्थात्रस्य नवीन टर्मिनल भवनस्य उद्घाटनं कृतम्। प्रधानमन्त्रिणा विहटा विमानस्थानकस्य नूतन नागरिक क्षेत्रस्य आधारशिला अपि स्थापिता। इयं परियोजना 10,14,00,000 कोटि रूप्यक व्ययेन अस्ति। प्रधानमन्त्रिणा पटना नगरे भव्य मार्ग प्रदर्शनम् अपि कृतम्। प्रधानमन्त्रिणा पश्चिम बंग सिक्किम प्रदेशयोश्च अनेकासां विकास परियोजनानां उद्घाटनं शिलान्यासश्च कृतः। प्रधानमन्त्री पश्चिम बंगस्य सिक्किमस्य च अनेक विकास परियोजनानां उद्घाटनं कृत्वा शिलान्यासं कृतवान्। श्रीमोदी पश्चिमबंगस्य अलीपुर दुआर मण्डले नगराधारितायाः वातरन्ध्री वितरण परियोजनायाः शिलान्यासं कृतवान्। सः अवदत् यत् 70,100,000 कोटि रूप्यकाणां एषा परियोजना अलीपुर दुआर कूचबिहार मण्डलयोः जनानां लाभाय भविष्यति। मोदी अवदत् यत् विकसित भारतस्य निर्माणे पश्चिमबंगस्य महत्वपूर्णा भूमिका अस्ति। अद्यत्वे यदा भारतं विकसित राष्ट्रं भवितुं गच्छति तदा बंगालस्य सहभागिता अपेक्षिता अत्यावश्यकी चापि अस्ति। बंगालस्य विकासः भारतस्य भविष्यस्य आधारः। केन्द्रीय कृषि मन्त्री शिवराज सिंह चौहानः कांग्रेस उपरि आरोपं कृतवान् यत् कांग्रेस दलं न्यूनतम समर्थन मूल्यं स्वीकृत्य कृषकाणां मनः आटयति। तस्य कथनम् अस्ति यत् कांग्रेस दलस्य शासने सर्वेषां शस्यानां एसएसपी दरस्य तुलना यदि क्रियते चेत् तर्हि नाममात्रेण अधिका वृद्धिः अस्ति, किन्तु भाजपा प्रशासनेन समर्थन मूल्ये अधिका वृद्धिः कृता। विदेश मन्त्रिणा डॉ एस जयशंकरेण प्रोक्तं यत् भारत न्यूजीलैंड देशयोः मध्ये विभिन्नेषु क्षेत्रेषु सम्बन्धाः विस्तीर्यन्ते। नवदिल्ल्यां न्यूजीलैंडस्य उपप्रधानमन्त्रिणः विदेशमन्त्रिणश्च विस्टन् पीटरसेन सह उपवेशनस्य अवसरे इयं टीका कृता। श्री पीटरसः द्विदिवसीय यात्रायां दिल्लीं सम्प्राप्तवान्। प्रचण्ड वृष्ट्या नारंग वर्णस्य संचेतना संचारिता। जम्मू कश्मीर पंजाब हरियाणा राजस्थान उत्तरप्रदेश मध्यप्रदेश छत्तीसगढ़ उड़ीसा पश्चिम बंगाल असम इत्यादिषु स्थानेषु वायव्य मध्य पूर्व भारतेषु अतिवृष्टि कारणात् अद्य ऋतु विभागेन नारंग संचेतना संचारिता। पत्रकारैः सह वार्तालापं कुर्वन् विभागस्य वैज्ञानिकः अखिल श्रीवास्तव एतद् अवदत्। आईपीएल 2020 क्रिकेट स्पर्धायां रॉयल चैलेंजर्स बेंगलुरु दलेन प्रथम साफल्ये पंजाब किंग्स दलं अष्ट क्रीडकाणां पुरस्सरं पराजित्य श्रृंखलायां प्रविष्टवत्। अद्य मुंबई इंडियंस दलं गुजरात टाइटन्स दलं स्पर्धिष्यते। ऋतु विभागे एतद् अवदत् यत् वायव्य प्रदेशे मेघगर्जनस्य प्रचण्ड वायुश्च संभावना वर्तते इति वार्ताः।